गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र रूपस्य व्याप्यवृत्तित्वम् अस्ति न वा इति तस्य वयं दृष्टवन्तः तत्र मतद्वयं वर्तते तत्र प्राचीनानां मतम् अस्ति तत्र रूपम् इति गुणः व्याप्यवृत्तिः अस्ति नाम तस्य गुणस्य व्याप्यवृत्तित्वम् अस्ति नाम रूप कस्मिंश्चित् पदार्थे अस्ति चेत् तस्मिन् पदार्थे सर्वत्र नाम एकदेशे इति न तत्र सर्वत्र भवति इति दृष्टवन्तः एतत् मतं प्राचीनानां मतं नव्यानां मतं तु भिन्नं तत्र नव्यानां मतम् अस्ति न तादृशः गुणः नास्ति रूपम् रूपमिति गुणः अव्याप्यवृत्तिः गुणः अस्ति नाम तस्य अव्याप्यवृत्तित्वम् अस्ति तत्र कुत्रचित् पदार्थे सर्वत्र भवति कुत्रचित् एकदेशे अपि भवति कपि संयोगः इव एषः गुणः अस्ति इति तेषां मतम् इति अस्ति एतद् वयम् अस्मिन् विषये वयं करपत्रमपि पठितवन्तः इदानीं तत्र विद्याधर्यां तत्र या चर्चा भवति तां चर्चाम् इदानीं तत्र वयं करपत्रे यानि यन्त्राणि आवश्यकानि तानि पठितानि पठितवन्तः वयम् अतः तत्र सर्वं मनसि इदानीं स्पष्टं भवति यतोहि तत्र किं किम् आवश्यकमस्ति तद् वयम् अतीतवन्तः अतः तत्र अग्रे सर्तुं सुलभतया सर्तुं शक्नुमः इति मन्ये अस्तु तर्हि तत्र नीता भगिनी नमस्कारः अन्य कोऽपि अस्ति वा अस्तु
नमस्काराचार्य
नमस्कारः अस्तु तर्हि अग्रे सरामः तर्हि तत्र अतः तत्र अग्रे कपि संयोगः इति वाक्ये अपि ततः आरभ्य तत् गतवर्गे पठितवन्तः किन्तु पुनरेकवारम् एतत् पठामः तत्र हा प्रायश एतत् सर्वं यदि पठितवन्तः किन्तु पुनरेकवारं पठामः एतत् अतः आरभ्य अस्तु तर्हि तत्र अतः आरभ्य तर्हि तत्र हा योगेन्द्रमहोदय आरम्भं करोति वा अग्रे वृक्षे इति आरभ्य
अग्रे वृक्षे कपिसंयोगः इति वाक्येऽपि अग्रपदोत्तरसप्तम्याः औच्छेदकत्वम् अर्थः वृक्षपदोत्तरसप्तम्याः अधिकरणं करणत्वम् अर्थः
तावत्पर्यन्तं महोदय तावत्पर्यन्तं वदतु
अत्र अग्रे वृक्षे इति वाक्य इति पदद्वयोः
वाक्यं किमस्ति
वाक्यमस्ति अग्रे वृक्षे कपिसंयोगः इति वाक्ये इति वाक्यमस्ति
वाक्यं किमस्ति
तत्र अग्रे यः सप्तम्याः उपयोगः कृतमस्ति सः औच्छेदकत्वम् औच्छेदकत्वात् अस्ति यतोहि अग्रभागे कपिसंयोगः अस्ति अतः सः औच्छेदकः भवति मूलभागे कपिसंयोगः नास्ति मूलभागे मूले हा नास्ति अतः औच्छेदकत्वं भवति वृक्षपदोत्तरसप्तम्याः अधिकरणत्वम् अर्थः वृक्षे इति वृक्षे कपिसंयोगः अस्ति अतः वृक्ष अधिकरणम् अस्ति कपिसंयोगस्य अतः वृक्षे अग्रभागः अपि कपिसंयोगः अपि वृक्षे अस्ति कपिसंयोगस्य अभावः अपि वृक्षे अस्ति अतः अधिकरणत्वम् इति सूचयति सप्तम्यां सप्तमी विभक्त्याः
समीचीनं महोदय इदानीम् अहम् उत्तमं महोदय किञ्चित् केवलं स्पष्टीकरणार्थं तत्र अवच्छेदकत्वम् इत्यर्थः तर्हि तत्र अवच्छेदकः कः अस्मिन् तत्र
कपिसंयोगः
न अवच्छेदकः कः
अवच्छेदकः
तत्र अग्रे वृक्षे कपि संयोगः तत्र अग्रपदोत्तर
अग्रे अग्रे इति औच्छेदकः मूलः इति द्वितीय औच्छेदकः
प्रथम अवच्छेदकः कः
अग्रे
अग्रे न अग्रदेशं खलु अग्रे इति सप्तमी
अग्रदेशम् अग्रभागे
अग्रभागे इति सप्तमी किन्तु अवच्छेदकः अस्ति तत्र प्रथमाविभक्तिप्रयोगः खलु नाम अग्रदेशम् इति भवेत् खलु
अस्तु
अवच्छेदकं किम् इत्युक्ते अग्रदेशं खलु
अग्रदेशम् अस्तु
अग्रदेशं समीचीनं तर्हि तत्र अग्रदेशम् अधि अवच्छेदकम् अवच्छेद्यं किम् अस्ति अथवा अवच्छेद्यः कः अत्र
अवच्छेद्यः वृक्षः प्रायः
वृक्षः नास्ति वृक्षः नास्ति अवच्छेदकः वृक्षः नास्ति अवच्छेदकः कः अस्ति
अवच्छेदकः अग्रदेशः
अग्रदेशः अग्रदेशः अस्ति अवच्छेद्यः नाम अवच्छेदकः अस्ति अवच्छेदकः अस्ति चेत् अवच्छेद्यम् अथवा अवच्छेद्यः अपि भवेत् खलु तर्हि अवच्छेद्यः कः
अवच्छेद्यः कपिसंयोगः
हा उत्तमं महोदय हा तदेव अस्ति समीचीनं यतोहि तत् कुत्र अस्ति इति एव तत्र अग्रदेशं वदति खलु तत्र अग्रदेशः अस्ति क्षमतां हा अग्रदेशः अस्ति तत्र अवच्छेदकः अवच्छेद्यः अस्ति कपिसंयोगः उत्तमं महोदय अस्तु धन्यवादः समीचीनं
धन्यवादः
अस्तु इदानीम् अग्रे सरामः हा समीचीनं महोदय अस्तु इदानीम् अग्रे तत्र शोभगिनी अग्रे पठति वा
आं महोदय तत्र तथा च अग्र अवच्छिन्नवृक्षनिष्ठ अधिकरणता निरूपिता अधेयता आशयः कपिसंयोगः इति प्रतीयते तावत् वा महोदय
अग्रिममपि पठतु
अस्तु मूले वृक्षे कपिसंयोग अभावः इति वाक्यात् अपि मूल अवच्छिन्नवृक्षनिष्ठ अधिकरणता निरूपिता अधेयता आशयः कपिसंयोग अभावः इति बोधो भवति एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम् अस्तु महोदय तत्र तथा च इदानीं तत्र कपि संयोगः अवच्छेद्यः अग्रभागः अवच्छेदकः कपि संयोगः अवच्छेद्यः भवति इति उक्तवन्तः तथा एव अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयताशयः कपि संयोगः इति प्रतीयते इदानीं तं स्वीकृत्य अग्र अवच्छिन्न इत्युक्ते अग्रभागेन अवच्छिन्न वृक्षनिष्ठ अधिकरणता तया अधिकरणता तया निरूपित आधेयत आशयः कपिसंयोगः इति इति किं वक्तुं शक्नुमः
तर्हि किञ्चित् किञ्चित् तत्र वदतु तत्र कुत्र किं किं वर्तते इति तत्र
अग्रभागे कपिः अस्ति कपिसंयोगेन संयोगेन कपि
नाम अग्र अवच्छिन्ना इति अस्ति तर्हि तत्र अग्रे किम् अस्ति अग्रदेशे किम् अस्ति
अग्रदेशे कपिसंयोगः अस्ति
आम् सत्यम्
अपि च गुणः गुणः इति
नाम अग्रे अवच्छिन्ना इति उक्तं खलु तर्हि अवच्छिन्ना इत्युक्ते तत्र यथा भवती उक्तवती तत्र अग्रदेशः अवच्छेदकः खलु
तत्र अग्रभागेन अवच्छिन्न इति भवति वा
तदेव
अग्रभागेन अवच्छिन्न
अवच्छिन्न तर्हि अग्रभागे अग्रभागः अवच्छेदकः
अवच्छेदकः तेन अवच्छिन्न इति भवति
इदानीम् अग्रभागः अवच्छेदकः इति कृत्वा अग्रभागे अवच्छेदकता अस्ति
अवच्छेदकता अस्ति अस्तु अग्रभागे अवच्छेदकता अस्ति आम्
अवच्छेदकता अस्ति अपि तत्र कपि तत्र तत्र कपि तत्र साक्षात् तत्र कपिसंयोगः इति न किन्तु तत्र तस्य तत्र आदेयता तत्र अधिकरणता तत्र किं भवति तत्र अग्रभाग अवच्छिन्न वृक्षनिरुक्तकरणता अधिकरणता इति उक्तं तर्हि अत्र किम् उक्तं तत्र साक्षात् अवच्छेद्यम् अथवा अवच्छेद्यः कः अस्मिन्
तावत् वा महोदय अग्र अग्र अवच्छिन्नवृक्षनिष्ठ अधिकरणता तावत् वा तत्र तु अधिकरणता वृक्षत्वमेव भवति खलु
नाम तत्र तत्र अस्माकं किम् आसीत् तत्र अधिकरणता द्वयं तत्र अवच्छेदकस्य आवश्यकता आसीत् यतोहि भेदः वयं भेदः वर्तते इति निरूपयितुम् इच्छामः खलु
इत्युक्ते व्याप्य अव्याप्यवृत्तित्वस्य वा महोदय
न न भगिनि नाम तत्र यत्र वयम् अवच्छेदकस्य नाम तत्र वयं पूर्वं दृष्टवन्तः
जलस्य विषये
जलस्य विषये तत्र वृष्टिजलम् अस्ति अपि तत्र सरोवरजलम् अस्ति अपि तत्र स्वातिनक्षत्रीयवृष्टिजलम् इत्यादिकम् आसीत् खलु तत्र अत्र अपि तत्र वृक्षे तत्र कपिसंयोगः अपि अस्ति कपिसंयोगस्य अभावः अपि अस्ति खलु
अस्तु आं महोदय तत्र नास्ति
किन्तु वृक्षे अधिकरणताद्वयमस्ति खलु
आम् अधिकरणताद्वयम् इत्युक्ते कपिसंयोगस्य अधिकरणता अपि च कपिसंयोग अभावस्य अधिकरणता अपि वृक्षे अस्ति
खलु तर्हि अतः तत्र अधिकरणताद्वयं वर्तते इति कृत्वा तयोः मध्ये कः भेदः इति यदि पृच्छामः तदा अवच्छेदकम् स्वीकृत्य वयं वदामः अत्र पश्यतु अस्य अवच्छेदकः एषः अस्ति अस्याः अधिकरणतायाः अवच्छेदकः एषः अस्ति अन्याः अवच्छेदकः अन्यः अस्ति इति तर्हि तत्र
संयोगस्य अधिकरणता अथवा संयोग अभावस्य अधिकरणता इति
किन्तु सत्यं सत्यं किन्तु अधिकरणता साक्षात् सत्यं किन्तु अधिकरणता कुत्र वर्तते वृक्षे खलु
वृक्षे वर्तते
यदि यतोहि तत्र वृक्षः अधिकरणम् आदेयः कः
आधेयः
कपिसंयोगः अथवा तस्य अभावः
तस्य अभावः
अतः आदेयद्वयं वर्तते किन्तु आदेयद्वयं भिन्नम् अधिकरणतद्वयमपि वर्तते अधिकरणतद्वयं कुत्र वृक्षे एव वर्तते इति कृत्वा तयोः मध्ये भेदः कः इति वक्तव्यं भवति तर्हि अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आदेयतायाः आशयः कपिसंयोगः इति तथापि चिन्तयितुं शक्नुमः अथवा तत्र कपिसंयोगः एव तत्र तस्य अवच्छेदकः एव साक्षात् तत्र अग्रदेशः इति अपि वयं वक्तुं शक्नुमः किन्तु तत्र अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता इति यावत् पठामः तत्र अधिकरणतायाः अवच्छेदकः अग्रदेशः इति अपि भवति खलु
अधिकरणतायाः अवच्छेदकः अग्रदेशः आम्
अग्रदेशः खलु
आं महोदय
अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता एतावत् यत् खलु तत्र अधिकरणता अस्ति. अधिकरणता कुत्र अस्ति?
अधिकरणता वृक्षे अस्ति.
वृक्षे अस्ति, तर्हि वृक्षनिष्ठ अधिकरणता. अपि भवती उक्तवती अग्रभागेन अवच्छिन्ना वृक्षनिष्ठ अधिकरणता, नाम अग्रभागः एव तस्य अधिकरणतायाः अवच्छेदः.
अवच्छेदकः इति भवति.
इदानीं तया निरूपित,
तया निरूपित आधेयता, कपिसंयोगः एव तत्र आधेयता आशयः भवति.
आधेयतायाः आशयः कपि,
आशयः कपिसंयोगः
इति भवति खलु. इदानीं तथैव इदानीम् अग्रिमवाक्यं तस्य विवरणं करोतु तर्हि अग्रे.
अस्तु, तथा एव तत् इदानीं मूले वृक्षे, मूले वृक्षे कपिसंयोग अभावः इति वाक्यात् अपि मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयताशयः कपिसंयोग अभावः इति. अस्तु, तथा एव तत्र अग्रभागे
तत्र सोपानेन गच्छामः. तत्र यथा अग्रे वृक्षे कपिसंयोगः इति यथा योगेन्द्रमहोदय पठितवान्, तथैव इदानीं तत्र मूले वृक्षे,
मूले वृक्षे
तत्र मूले सप्तमी अस्ति,
कपिसंयोग अभावः
तस्मिन् वाक्ये मूले इति सप्तम्यस्य अर्थः कः?
मूले इति मूले इति सप्तमी अर्थः, सप्तम्याम् अर्थः भवति कपिसंयोग अभावः. किं तत्र एकक्षणं महोदय, अग्रे वृक्षे कपिसंयोग इति वाक्ये अग्रपद उत्तर सप्तम्याः अवच्छेदक अथवा अवच्छेदकत्व अर्थः इति पठितवन्तः. तथा एव मूले मूले मूलपदोत्तरसप्तम्याः अवच्छेदकता अवच्छेदकत्व अर्थः इति भवितुम् अर्हति तत्र.
नाम
संयोग अभावः इदानीं, किन्तु मूल
अभावस्य
अभावस्य अग्रपदोत्तर इति यथा आसीत् तथा मूलपदोत्तरसप्तम्याः अवच्छेदकत्व अर्थः इति अपि वक्तुं शक्नुमः.
नाम मूलदेशः अथवा मूलभागः,
मूलदेशः
अवच्छेदक अवच्छेदकः अस्ति.
यथा अग्रदेशः तथा एव मूलदेशः अपि अवच्छेदकः अस्ति. प्रथम अग्रदेशः कपि संयोगस्य अवच्छेदकः अवच्छेदकः अस्ति चेत् मूलभागः, मूल मूलभागः कपि संयोग अभावस्य अवच्छेदक अवच्छेदकः.
अस्तु, समीचीनम्. वृक्षे इति तत्र सप्तमी किमर्थम्?
वृक्षे इति सप्तम्या तत्र सप्तमी किं सप्तम्याः अवच्छेदकत्व अर्थः इति उक्तत्वात् तत्र किं वदामः
नाम एतदेव तत्र योगेन्द्रमहोदय पठितवान् खलु,
पठितवान्.
पुनः एकवारं प्रथमवाक्यद्वयं पठतु भगिनि.
अग्रे वृक्षे कपिसंयोगः इति वाक्ये अपि अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वम् अर्थः. तत्र अवच्छेदकत्वम्
अग्रिमवाक्यम्
अग्रिमवाक्यं वृक्षपदोत्तरसप्तम्याः अधिकरणत्व अधिकरणत्वमिति अर्थः. वृक्षपदोत्तर अस्तु, इदानीं वृक्षपदोत्तरसप्तम्याः अधिकरणत्वं प्रथमम् अवच्छेदक अर्थम् आसीत् सप्तम्याः अग्रे वृक्षे इति, इदानीं मूले वृक्षे इति सप्तम्याः अर्थम् अस्ति अधिकरणत्व अर्थम् इति.
तर्हि तत्र
कपिसंयोगस्य अभावस्य अधिकरणत्वम् अधिकरणत्वस्य अर्थे अस्ति मूले वृक्षे इति सप्तमी.
न न न अस्तु अस्तु, एकनिमिष भगिनि, तत्र मूले तत्र सप्तमी अस्ति वा?
तत्र सप्तमी अस्ति.
अस्तु, वृक्षे इति तत्र
सप्तमी अस्ति.
सप्तमी अस्ति, मूले इति सप्तमी, तस्य अर्थः कः?
मूलभागे इति.
न न अवच्छेदकम् इति अवच्छेदकत्वम् इति कारणात् तत्र सप्तमी प्रयोगः वर्तते खलु. एतदेव अर्थः. किमर्थं तादृशं
तद् न उक्तवती वा अहं महोदय.
अस्तु अस्तु. तर्हि मूले मूलदेशः अवच्छेदकः इति अस्ति. अस्तु, इदानीं वृक्षे इति तत्रापि सप्तमी विभक्तिप्रयोगः वर्तते. किमर्थं वृक्षे इति उक्तं? तत्र सप्तमी प्रयोगस्य विभक्तेः प्रयोगः किमर्थं कृतः?
तत्र अधिकरणत्व अर्थे.
हा, कस्य अधिकरणत्व?
कपिसंयोग अभावस्य अधिकरणत्व.
अभावस्य कपिसंयोग अभावस्य अधिकरणं वृक्षः अस्ति इति कृत्वा तादृशम् अस्ति. समीचीनं भगिनि. हा अस्तु अस्तु अस्तु, समीचीनम् अस्तु. इदानीम् अग्रे अन्य कोऽपि कुर्यात्. समीचीनं भगिनि.
इदानीं
स्पष्टम् अस्ति, स्पष्टम् अस्ति. अस्तु, समीचीनं भगिनि. अस्तु अग्रे. हा तर्हि तत्र नीता भगिनि अग्रे पठति वा? तर्हि तत्र इदानीं तत्र मूले वृक्षे कपिसंयोग अभाव इति.
मूले वृक्षे कपिसंयोग अभावः अत्र यथा अग्रे वृक्षे कपिसंयोगः तथा मूले वृक्षे कपिसंयोग अभावः वर्तते. तत्र मूल अवच्छिन्न अत्र मूले इति अवच्छेदकः मूल मूलभागम् इति अवच्छेदकः वृक्ष इति अधिकरणं वृक्षे अधिकरणताद्वयं वर्तते. तत्र एक अस्ति अधेयता कपिसंयोगः अधेयता कपिसंयोग अभावः मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता मूल इति अवच्छेदकः अथा अवच्छेद्य भवति कपिसंयोग अभावः अत्र मूल इति अवच्छेदकः.
समीचीनं भगिनि, किन्तु अत्र किन्तु समीचीनं तद् समीचीनमेव, किन्तु तत्र यथा उक्तं तथा तत्र किमस्ति मूलावच्छिन्न वृक्षनिष्ठ अधिकरणता. तर्हि
मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता वृक्षे अधिकरणमस्ति. वृक्षे अधिकरणताद्वयं तत्र कपिसंयोग अभावः वृक्षनिष्ठ अधिकरणता तस्य अवच्छेदकः मूलभागमस्ति. अतः मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता अत्र मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणतायाः आधेयता अस्ति कपिसंयोग अभावः.
एकनिमिषः भगिनि, एकनिमिषः. अस्तु अस्तु. तर्हि तत्र चित्रं तत्र अस्तु, उदाहरणं स्वीकुर्मः. तत्र गन्धः गन्धः कुत्र वर्तते?
पृथिव्यां वर्तते.
पृथिव्यां वर्तते. तर्हि तत्र सर्वत्र न वर्तते गन्धः. तर्हि तत्र गन्धस्य अवच्छेदकः अथवा अवच्छेदकं किं भवति?
गन्धस्य गन्ध इति आधेयता तस्य अधिकरणता गन्ध इति आधेय पृथ्वी इति अधिकरणं.
तर्हि तत्र कुत्र कुत्र लोके कुत्र कुत्र भवति गन्धः? यत्र यत्र पृथ्वी अस्ति खलु.
पृथ्वी अधिकरणरूपेण अस्ति.
तर्हि तत्र अवच्छेदकं किम् इत्युक्ते वयं पठितवन्तः तत्र पृथ्वीत्वं खलु.
पृथ्वीत्वं.
तर्हि गन्धः कीदृशः इति यदि प्रश्नः भवति तदा वयं वदामः पृथ्वीत्वावच्छिन्नः गन्धः खलु. पृथ्वीत्व अवच्छिन्नः गन्धः
गन्धः.
तर्हि तत्र अवच्छेदकः कः तत्र अथवा अवच्छेदकं किमस्ति तत्र?
अवच्छेदकमस्ति पृथ्वीत्वं.
पृथ्वीत्वम् अवच्छेद्यः कः भवति?
अवच्छेद्यः भवति पृथ्वी वा
न न तस्य अवच्छेदकः
अधिकरणता
न न नाम अवच्छेद्य अवच्छेदकः तयोः मध्ये
अवच्छेद्य अवच्छेद्य गन्धत्वमस्ति वा
गन्धः अस्ति गन्धः अस्ति
गन्धः
गन्धः एव अवच्छेद्यः अवच्छेद्यः गन्धः अस्ति
अवच्छेद्य गन्ध ओके
अवच्छेद्यः अस्ति गन्धः अवच्छेदकम् अस्ति पृथ्वीत्वं
पृथ्वीत्वं
समीचीनं खलु
आम् आम्
तर्हि पृथ्वीत्व अवच्छिन्न गन्धः इति यदि वदामः अवगच्छामः खलु तर्हि तत्र पृथ्वीत्वम् इति अवच्छेदकम् अस्ति कस्य अवच्छेदकम् अस्ति गन्धस्य अवच्छेदकम् अस्ति गन्धः भवति अवच्छेद्यः केन अवच्छेद्यः तत्र केन अवच्छिन्नः पृथ्वीत्व अवच्छिन्नः अवच्छिन्नः गन्धः खलु इदानीं तत्र मूलावच्छिन्ना इति उक्तमस्ति वृक्षनिष्ठ अधिकरणता इति उक्तमस्ति खलु तर्हि तत्र मूलावच्छिन्न वृक्षनिष्ठ कुत्र अस्ति इति इदानीं तादृशम् अपि तदपि अस्ति तर्हि तत्र तदपि वदामः तर्हि तत्र गन्धः इति अवच्छेद्यः आसीत् गन्धः कुत्र वर्तते पृथिव्यां वर्तते
पृथिव्यां वर्तते
तर्हि पृथ्वीत्वावच्छिन्न पृथ्वीनिष्ठ गन्धः 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 तर्हि तत्र गन्धः अस्ति तत्र गन्धः अस्ति पृथिव्याम् अस्ति पृथ्वी अस्ति अपि तत्र पृथ्वीत्वम् इति अस्ति खलु तर्हि तत्र पृथ्वीत्वावच्छिन्न पृथ्वीनिष्ठ गन्धः इति भवति खलु पृथ्वीत्वावच्छिन्न पृथ्वीनिष्ठ गन्धः समान आकारकवाक्यम् अत्र वर्तते तर्हि तत्र इदानीं तत् पठित्वा एकवारं वदतु तत्र अवच्छेदकम् अपि अवच्छेद्यः इत्यादि एकवारं वदतु भगिनि
मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता तत्र मूले अवच्छेदकः मूलं मूलभागम् इति अवच्छेदकः मूल अवच्छिन्न तत्र अधिकरणता वृक्षे वर्तते मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता इति अस्ति
तर्हि तत्र अवच्छेद्यः कः अथवा अवच्छेद्या का अस्ति
अत्र अवच्छेद्यः अस्ति कपिसंयोग अभावः
न न केवलं यत् पठितवती तत् यथा वयं भवती उक्तवती तत्र गन्धः पृथिव्यां वर्तते पृथ्वीत्वम् इति अवच्छेदकम् अस्ति खलु तर्हि तत्र गन्धस्य उदाहरणं वाक्यम् एकवारं वदतु पृथ्वीत्वावच्छिन्न इति आरभ्य
पृथ्वीत्वा अवच्छिन्न पृथ्वीनिष्ठ अधिकरणता
न न गन्धः पृथ्वीनिष्ठगन्धः
पृथ्वीनिष्ठगन्धः पृथ्वीत्वा अवच्छिन्न पृथ्वीनिष्ठ गन्धः
तर्हि तत्र अंशत्रयं वर्तते पृथ्वीत्वमस्ति पृथ्वी अस्ति
पृथ्वी गन्धः
गन्धः गन्धः अस्ति तत्र प्रथममस्ति पृथ्वीत्वं द्वितीयमस्ति पृथ्वी तृतीयमस्ति गन्धः अस्तु तथैव समानाकारकवाक्यम् अत्र अस्ति तर्हि प्रथमः अंशः पृथ्वीत्वम् अवच्छेदकः अत्र अवच्छेदकः कः अत्र अस्मिन्
वाक्ये मूलभागम्
मूलभागः अस्तु मूलभागः अस्तु पृथ्वी इति अंशः अत्र सः अंशः कः
तत्र वृक्ष इति अंशः
वृक्षः इति अस्ति समीचीनम् इदानीं तत्र पृथ्वीत्वावचिन्न पृथ्वीनिष्ठगन्धः गन्धः इति तृतीयांशः अत्र अस्मिन् वाक्ये तृतीयांशः कः
ओके हा मूल अवच्छिन्न वृक्ष
निष्ठ अनन्तरं यत् वर्तते तदेव तृतीयांशः खलु अत्र निष्ठानन्तरं साक्षात् किम् अस्ति निष्ठ अनन्तरं किम् अस्ति
वृक्षनिष्ठा मूल अनन्तरं मूल
अवच्छिन्न न मूलावच्छिन्न वृक्षनिष्ठ तस्य अनन्तरं किम् अस्ति
अधिकरणता अस्ति
तृतीयांशः कः
अधिकरणता
यतोहि अधिकरणता द्वयं वर्तते इति कृत्वा एव तत्र अवच्छेदकस्य अपेक्षा आसीत् खलु अधिकरणताद्वयं वर्तते एका आगच्छति तत्र कपिसंयोगः वृक्षे भवति इति कृत्वा अन्या आगच्छति यतोहि कपिसंयोग अभावः अपि वृक्षे वर्तते इति कृत्वा अतः अधिकरणताद्वयम् अस्ति तर्हि मूलावच्छिन्नवृक्षनिष्ठ अधिकरणता इत्युक्ते किम् अस्ति अवच्छेदकः अवच्छेद्यं सर्वम् इदानीं वदतु
अत्र मूलभागम् इति अवच्छेदकः वृक्ष इति अधिकरणः मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता इति अस्ति
अवच्छेद्यः अथवा अवच्छेद्या का अस्ति
अधिकरणता इति
अधिकरणता अस्ति
इति अवच्छेद्या
इति अवच्छेद्या अस्ति समीचीनम् इदानीं निरूपित इति
तया निरूपिता आधेयतायाः आश्रयः आधेयता आधेयता कपिसंयोग अभावः आधेयता इति अस्ति कपिसंयोग अभावः
आधेयता कपिसंयोग अभावे वर्तते आधेयः अस्ति साक्षात् आधेयः अस्ति कपिसंयोग अभावः
सम्यक् आधेय अस्ति कपिसंयोग अभावः कपिसंयोग अभावे आधेयता वर्तते अतः मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणतायाः आधेयता
तया निरूपिता
आधेयतायाः आश्रयः अस्ति कपिसंयोग अभावः इति
नाम अधिकरणतानन्तरं वयं सर्वदा किं कुर्मः तत्र इति तत्र आधेयता इति
आधेयतायाः आश्रय
तत्र कपिसंयोगः इति लिखामः खलु अभावः कपिसंयोग अभावः इति लिखामः तथैव चित्रं भवति खलु अस्तु एषः एव तत्र अर्थः अस्ति अस्तु समीचीनम् अस्तु इदानीं तद् धन्यवादः भगिनी अन्यापि एकवारं वदतु यतोहि तत्र प्रमुख अंशः अस्ति सर्वेषाम् अवगमनं सम्यक् भवति इति पश्यामः अस्तु धन्यवादः भगिनी अस्तु तर्हि तत्र मृणालिनी भगिनी एकवारं पुनः तत्र वदति वा भगिनि मूले वृक्षे इति आरभ्य
मूले वृक्षे कपिसंयोगाभावः इति वाक्यादपि मूलावच्छिन्नवृक्षनिष्ठ अधिकरणता निरूपिताधेयताश्रयः कपिसंयोगाभावः इति बोधो भवति तर्हि मूले वृक्षे कपिसंयोगाभावः अस्ति मूले वृक्षे कपिसंयोगाभावः अस्ति तर्हि अत्र वयं मूलावच्छिन्न मूलेन अवच्छिन्नः तर्हि मूलावच्छिन्न वृक्षनिष्ठ अधिकरणता मूलेन अवच्छिन्न वृक्षनिष्ठ अधिकरणता यत् अस्ति तया निरूपित।
तर्हि तत्र अवच्छेदकः कः, अवच्छेद्यः, एतत् सर्वं वदतु।
मूल अवचिन्न, मूले मूलेन अवचिन्न, मूलः मूलभागः अवच्छेदकः, मूलभागः अवच्छेदकः।
उत्तमम् उत्तमम् अस्तु।
अवच्छेद्य अस्ति वृक्षनिष्ठ अधिकरणता।
हा, अधिकरणता अस्ति अवच्छेद्या, अवच्छेद्या अस्ति अधिकरणता। अधिकरणता कुत्र अस्ति?
वृक्षे।
वृक्षे, अतः एव वृक्षनिष्ठ अधिकरणता। अस्तु, समीचीनं। हा, अग्रे।
तर्हि वृक्षनिष्ठ अधिकरणता निरूपित आदियताश्रयः कपिसंयोगाभावः। तर्हि अधिकरणेन निरूपित आधेयता, आधेयता आश्रयः कपिसंयोगाभावः अस्ति। कपिसंयोग संयोगाभावे आधेयता वर्तते।
अस्तु, समीचीनं। तत्र आधेयता निरूपिता अस्ति कया? अधिकरणतया। अपि अधिकरणता कीदृशी अस्ति? अवच्छिन्ना अस्ति। केन अवच्छिन्ना अस्ति? मूलदेशेन अवच्छिन्ना अस्ति। अस्तु, समीचीनम्। इदानीम् अग्रे। एवं च,
एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव चित्ररूपस्थलेऽपि निर्वाहः शक्यः कर्तुम्। एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं,
यथा वयं तत्र कपिसंयोगस्य अव्याप्यवृत्तित्वम् उक्तवन्तः खलु।
आम् आम्।
एतावत् वयं किं कृतवन्तः? कपिसंयोगः अपि वृक्षे वर्तते, कपिसंयोगस्य अभावः अपि वृक्षे वर्तते इति बोधः भवति खलु।
आम् आम्।
तर्हि कपिसंयोगः, कपिसंयोगस्य व्याप्यवृत्तित्वम् अस्ति अथवा अव्याप्यवृत्तित्वम् अस्ति? किमस्ति?
कपिसंयोगस्य अव्याप्यवृत्तित्वं वर्तते।
अव्याप्यवृत्तित्वम् अस्ति, समीचीनम्। अतः तेनैव, तथैव, एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव, यथा वयम् अत्र उक्तवन्तः तथैव वयं चित्ररूपस्थले, चित्ररूपस्थले इत्युक्ते किम्?
चित्ररूपस्थले यत्र यत् मिश्रितरूपमस्ति खलु,
तत्र नाम सप्तमरूपं, सप्तविधम् इति उक्तं, तत्र चित्रमिति सप्तमम् अस्ति। तस्मिन् स्थले अपि,
चित्ररूपस्थले अपि वयं एतादृशमेव अव्याप्यवृत्तित्वं,
एतादृशं तत्र अव्याप्यवृत्तित्वं साधितुं शक्नुमः, साधितुं शक्यते, शक्यः कर्तुं, निर्वाहः शक्यः कर्तुं, तथैव भवति इति वयं साधितुं शक्नुमः। अतः चित्ररूपस्थले अपि, तत्र रूपस्थले, रूप इति गुणः यः वर्तते, सः गुणस्य, तस्य गुणस्य अपि अव्याप्यवृत्तित्वं वर्तते इति, एतेन यथा अत्र कृतं तथैव वयं तस्मिन् तत्र रूपस्थले अपि वयं कर्तुं शक्नुमः इति अस्ति। समीचीनम्। अस्तु,
व्यापकत्वमपि अस्ति, चित्ररूपमपि वर्तते न चित्ररूपं न, एकं
रूपमपि वर्तते,
तस्य अभावः अपि वर्तते
इति साधयितुम्, इति साधितुं शक्नुमः इति उक्तं। समीचीनं भगिनी, हा, धन्यवादः। अस्तु, इदानीम् अन्य कोऽपि तत्र अग्रे, तर्हि तत्र नरसिंह हेगडे महोदय अग्रे पठति वा? नूतनतया तत्र चन्द्रमती भगिनी नमस्कारः, अशोक महोदय नमस्कारः,
नमस्कारः
महोदय, तर्हि तत्र अग्रे नरसिंह महोदय अग्रे पठति वा?
आं महोदय अव्याप्यवृत्ति नीलादिसमुदाय एव चित्ररूपमिति नव्यमतम् तदेव न महोदय
सत्यं महोदय
पीतरक्ततन्तुभिश्च यत्र पटोत्पत्तिः तत्र पटे अधिकरणे पीततन्तत्वावच्छेदेन पीतं रूपमुत्पद्यते यथा अग्रावच्छेदेन वृक्षेपसंयोगः भवति तथैव च पटरूपे अधिकरणे रक्ततन्तत्व अवच्छेदेन रक्तं रूपम् उत्पद्यते पीतरूप अभावोऽपि तत्रैव रक्ततन्तत्वावच्छेदेन पटे भवति तुल्यरीत्या रक्तरूप अभावोऽपि पीततन्तत्वावच्छेदेन पटे एव शक्य वक्तुम् अत्र पीतरक्तत्व तन्तुभिश्च यत्र पटोत्पत्तिः तत्र पटे अधिकरणे पीततन्तत्व अवच्छेदेन पीतरूपम् उत्पद्यते अत्र पटः इति अधिकरणमस्ति पीत अथवा रक्ततन्तुभि इति तत्र अवच्छेदकः अस्ति यथा यत्र उपरि घट कपिसंयोग अस्ति वयं निरूपितवन्तः तथा एव अत्रापि वक्तुं शक्नुमः इति पटे अधिकरणे पीततन्तत्व अवच्छेदेन पीतरूपम् उत्पद्यते इति यदा पीतरूपमिति स्वीकुर्मः चेत् तत्र तथा किं भवति अवच्छेदकः पीततन्त्व भवति
नाम पीतरूपम् इदानीम् अस्मिन् सन्दर्भे पीतरूपं पटे सर्वत्र अस्ति वा
परन्तु नास्ति अत्र नास्ति
सर्वत्र नास्ति अतः तत्र अपि तत्र केवलं तत्र रूपमिति अस्ति वा अथवा अन्यत् रूपमपि अस्ति वा पटे
अन्यत् रूपम् अस्ति रक्तरूपम् अस्ति
रक्तरूपमपि अस्ति तर्हि तत्र पीतरूपमपि अस्ति तर्हि तत्र पटे अधिकरणता अस्ति खलु यतोहि पीतरूपं पटे वर्तते अपि रक्तवर्णमपि वर्तते पटे तर्हि तत्रापि अधिकरणता अस्ति तर्हि अधिकरणताद्वयं जातं खलु तर्हि पटे अतः तत्र अवच्छेदकः कः इति प्रश्नः उदेति अधिकरणतद्वयमस्ति तयोः मध्ये कः भेदः अतः तत्र किमुक्तं पीतं पीतरूपं यत्र अस्ति तत्र अवच्छेदकं किमस्ति
पीततन्तत्व
पीततन्तत्व अवच्छेदेन नाम तत्र अवच्छेदकः कः अस्ति
पीततन्तुः
पीततन्तवः समीचीनं पीततन्तवः अवच्छेदकाः अथवा पीततन्तुः अवच्छेदकः अस्ति समीचीनं हा अपि अग्रे
अग्रे
यथा अग्रावच्छेदेन
तत्र हा कपिसंयोग अग्रभागे आसीत् तत्र अग्रावच्छेदेन तत्र कपिसंयोग अवच्छेदकं भव आसीत् अत्रापि यथा अग्रावच्छेदेन वृक्षे कपिसंयोगः भवति तावत् तादृशमेव पीततन्तु अवच्छेदेन पीतरूपं भवति इति तत्र
तत्र
तथैव
तत्र प्रायश महोदय तत्र प्रायश एक तत्र यदि एतद् वदामः तत्र अवच्छेदकः तत्र उदाहरणे एकनिमिष तत्र मूलभागः अग्रभागः इति वदामः अपि तत्र अधिकरणता द्वयम् उक्तवन्तः किन्तु एकः अधिकरणः भवति तत्र कपिसंयोगेन अपि द्वितीय अधिकरणता भवति तस्य अभावस्य खलु तथैव अत्र पटरूपम् इति
एकम् अधिकरणं भवति पीततन्तु एकम् अधिकरणं भवति रक्ततन्तत्व
तथैव अस्ति समीचीनं तर्हि तत्र अस्तु वदतु महोदय तत्रैव
तथैव च पटरूपे अधिकरणे रक्ततन्तत्वाच्छेदेन रक्तरूपम् उत्पद्यते यथा पीतरूपीततन्तत्वेन पीतरूपम् उत्पद्यते तथा एव रक्ततन्तत्वाच्छेदेन रक्तरूपम् उत्पद्यते पीतरूपाभावोपि तत्रैव रक्ततन्तत्वावच्छेदेन पटे भवति यत्र रक्तदन्तः वसन्ति तत्र पीतदन्तः न भवति अतः पीतदन्तत्व अवच्छे अभावः भवति यत्र पीतरु पीतदन्तः वसन्ति तत्र रक्तरूप अभावः भवति
हा उत्तमं महोदय हा हा समीचीनं हा समीचीनं हा पीतरूप अभावोऽपि तत्रैव रक्ततन्त्व अवच्छेदेन पटे भवति उत्तमं महोदय हा
तुल्यरीत्या पीतरूप अभावोऽपि तत्रैव रक्ततन्त्रत्वच्छेदेन पटे भवति तुल्यरीत्या रक्तरूप अभावोऽपि पीतदन्तोच्छेदेन पटे एव शक्यं वक्तुं यत्र रक्तरूपं नास्ति तत्र रक्तदन्तः नास्ति तत्र तस्य अभावः अस्ति तत्र किं भवति पीततन्त्र अवच्छेदेन रूपं भवति पटे
हा समीचीनं महोदय अस्तु इदानीं पुनः एकवारं एतदेव तत्र अशोकमहोदय एकवारं वदति वा स्वशब्दैः
धन्यवादः
धन्यवादः महोदय समीचीनं हा
अस्तु महोदय पीतरक्ततन्तुभिश्च यत्र पटोत्पत्तिः तत्र पटे अधिकरणे पीततन्तु अवच्छेदेन पीतं रूपम् उत्पद्यते इति पटे पीतरूपम् अपि अस्ति रक्तरूपम् अपि अस्ति
अपि अस्ति समीचीनं महोदय
पटः अधिकरणः अस्ति पटे पीतरूपं पीततन्तवः पीततन्तूनाम् अवच्छेद्यः
अवच्छेदकः खलु
पीततन्तु अवच्छेदकः यद् रूपम् अवच्छेद्यम् अतः पीततन्तवेन अवच्छेद्यः पीतरूपम्
समीचीनं हा पीतरूपं तेन अवच्छिन्नम् अस्ति हा
कीदृश चेत् यथा कपिसंयोगः कपिसंयोगस्य अधिकरणं वृक्षः तथैव पीतरूपस्य अधिकरणं पटः यथा अग्रभाग अवच्छेदकः अस्ति कपिसंयोगस्य तथैव पीततन्तुः अवच्छेदः अस्ति पीतरूपस्य
हा समीचीनं महोदय हा समीचीनम् अग्रे
तत्रैव च पटरूपे अधिकरणे रक्ततन्तु अवच्छेदेन रक्तरूपम् उत्पद्यते सदृशमेव रक्तरूपमपि
हा समानमस्ति रक्तरूपस्थले अपि समीचीनं हा अग्रे
पीतरूप अभावः अपि तत्रैव रक्ततन्तु अवच्छेदेन पटे भवति रक्त तन्तवे पीतरूपं न अस्ति अतः पीतरूप अभावः अस्ति रक्ततन्तवे अतः पीतरूप अभावस्य अधिकरणः पटः अस्ति पीततन्तु अभावस्य अवच्छेदकः रक्ततन्तु अस्ति अतः पीतरूप अभावः रक्त तन्तु अवच्छेदेन पटे भवति
हा समीचीनं महोदय तन्तुभिः तत्र पीतरूपस्य अभावः रक्ततन्तुभिः अवच्छेद्यः अस्तु महोदय समीचीनं हा तुल्यरीत्या
रक्त अभावः अपि
अभावस्य अवच्छेदकः पीततन्तवः सन्ति इति वक्तुं शक्नुमः समीचीनं हा अस्तु अतः तत्र एतत् सर्वं स्पष्टं स्यात् इदानीं नाम यत्र पीततन्तवः सन्ति तत्रैव पीतरूपम् अस्ति पीतरूपस्य अभावः कुत्र वर्तते इत्युक्ते तत्र रक्ततन्तवः यत्र सन्ति तत्र पीतरूपस्य अभावः वर्तते तर्हि पीतरूप अभावस्य अवच्छेदकः रक्ततन्तवः इति वक्तुं शक्नुमः अतः रक्ततन्तुभिः
अवच्छिन्नः पीतरूपस्य नाम अधेयता निरूपित अधिकरणता या तत्र पटे वर्तते. पटे साक्षात् अधिकरणताद्वयमस्ति, अधिकरणताद्वयमस्ति इति कृत्वा तत्र वयम् एतावत् किं कृतवन्तः, तत्र पीततन्तवः पीतरूपस्य अवच्छेदकः इति अपि वक्तुं शक्नुमः, अथवा पीततन्तवः अधिकरणतायाः अवच्छेदकः, या अधिकरणता निरूपित आदेयता पीतरूपे वर्तते. अतः रक्ततन्तवः कस्य अवच्छेदकः इति उक्ते तत्र रक्तरूपस्य अवच्छेदकः अपि वक्तुं शक्नुमः, अथवा अधिकरणतायाः अवच्छेदकः अपि वक्तुं शक्नुमः. यथा वयं कपिसंयोगस्थले कृतवन्तः, मूलदेशः कपिसंयोगस्य अवच्छेदकः अथवा मूलावच्छिन्न कप् वृक्षनिष्ठ अधिकरणता इति उक्तवन्तः. अधिकरणता केन आगता? कपिसंयोगेन आगता. अथवा अग्रदेशः कस्य अवच्छेदकः? मूलसंयो कपिसंयोग अभावस्य अधिकरण अवच्छेदकः अथवा अग्रदेशः अधिकरणतायाः अवच्छेदकः, द्वयमपि साधु एव. तथैव अत्रापि पीततन्तवः पीतरूपस्य अवच्छेदकः इति अपि वक्तुं शक्नुमः, रक्ततन्तवः रक्तरूपस्य अवच्छेदकः इति अपि वक्तुं शक्नुमः, अथवा पीततन्तवः अधिकरणतायाः अवच्छेदकः इति अपि वक्तुं शक्नुमः. अस्तु, समीचीनम्. अस्तु, अग्रे सरामः. धन्यवादः महोदय.
अत्र कस्य अधिकरणतायाः अवच्छेदकः पीततन्तवः? अत्र यत् अधिकरणता वर्तते लिखितं,
प्रश्नः अस्ति अधिकरणतायाः विषये वा?
पीततन्तवः पीतरूपस्य अवच्छेदकः
भगिनि, नाम तत्र पटः अस्ति, तत्र पटः पटः अस्ति, पटः अस्ति, पटे पीतरूपं पटे अस्ति खलु, रक्तरूपमपि पटे वर्तते खलु, तर्हि पीतरूपस्य अधिकरणं किमस्ति?
पटः.
पटः. रक्तरूपस्य अधिकरणं किमस्ति?
तदपि
पटः. पटः. तर्हि पटे अधिकरणता द्वयं वर्तते खलु, एषा अधिकरणता किमर्थम् आगता? यतोहि पीतरूपम् अस्ति पटे. एषा अधिकरणता कीदृशी अस्ति? एषा अधिकरणता अस्ति पीतरूपनिष्ठ आदेयता निरूपित अधिकरणता. एषा अधिकरणता का? रक्तरूपनिष्ठ आदेयता निरूपित अधिकरणता.
अधिकरणता रक्तरूपनिष्ठ आधेयता निरूपित अधिकरणता
खलु. अधिकरणताद्वयं कुत्र वर्तते? पटे वर्तते खलु.
पटे वर्तते,
वर्तते. अधिकरणताद्वयं किं सर्वत्र वर्तते वा पटे? यत्र रूपम् अस्ति तत्र एव तत्र अधिकरणता भवेत् खलु. अतः तत्र वयं तस्य अधिकरणतायाः अवच्छेदकः कः इति वदामः, तदा वयं वदामः पीततन्तवः एव अधिकरणतायाः अवच्छेदकः, अथवा पीततन्तवः एव तत्र पीतरूपस्य अवच्छेदकः, समानं. पीततन्तवः पीतरूपस्य अवच्छेदकः अथवा पीततन्तवः अधिकरणतायाः अवच्छेदकः. यथा भवती पठितवती खलु तत्र मूलावच्छिन्नवृक्षनिष्ठा अधिकरणता, तत्र मूलदेशः अवच्छेदकः आसीत्, अवच्छेद्या का आसीत्? अधिकरणता खलु. तथैव तत्र वाक्ये तादृश नाम साक्षात् वर्णनं कुर्मश्चेत् न्यायशास्त्ररीत्या अधिकरणता उपयुज्य एव वयं वर्णयामः, किन्तु लौकिकरीत्या वयं वदामः पीततन्तवः पीतरूपस्य अवच्छेदकः. किन्तु यदि साक्षात् वक्तुमिच्छामः तत्र कथम् इत्युक्ते, तत्र पीततन्तुभिः अवच्छिन्ना पटनिष्ठ अधिकरणतानिरूपित आदेयतायाः आश्रयः अस्ति नितरूपम्। समीचीनम्। यत् यथा भवती पठितवती तत्र इदानीं तथैव वाक्यं वदतु एकवारं। तत्र रक्ततन्तवः रक्तरूपस्य अवच्छेदकः अस्ति, किन्तु एतादृशं वाक्यं वदतु।
रक्ततन्तुभिः अवच्छिन्नं रक्तरूपनिष्ठ
पटनिष्ठ
रक्ततन्त्वावच्छिन्नतन्तुभिः
अवच्छिन्न अथवा रक्ततन्त्वावच्छिन्न अस्तु रक्ततन्त्वावच्छिन्न पटनिष्ठ
अधिकरणता
निरूपित आदेयतायाः आश्रयः
रक्तरूपम्
रक्तरूपम्। उत्तमं भगिनि, समीचीनं खलु, अवगतं खलु। अस्तु तत्र समीचीनं भगिनि। तर्हि तत्र अस्तु तत्र इदानीं तत्र समीचीनं भगिनि। इदानीं विमला भगिनी नमस्कारः, अग्रे पठति वा भगिनि।
आं महोदय, सङ्गणकस्य लो बेटरि इति एकनिमिषं महोदय, तस्य चार्जर् किञ्च एकनिमिषं महोदय, यदि शक्यते न जानामि किम्
सर्वत्र भवति भगिनि, चिन्ता मास्तु। यदि इदानीं नास्ति अग्रे पठतु भगिनि, चिन्ता मास्तु।
किञ्चित् समयानन्तरं पठामि महोदय, न जानामि किमर्थं
एतावदस्ति। चिन्ता मास्तु, तर्हि उषा भगिनी अग्रे पठति वा
महोदय। एवं च एतादृश सर्वजनसिद्ध अव्याप्यवृत्तित्वेन एवं च एतादृश सर्वजनसिद्ध अव्याप्यवृत्तित्वेन एव तादृशपटे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्यः। प्रयत्नं करोमि महोदय। एवं च एतादृशसर्वजनसिद्ध अव्याप्यवृत्तित्वेन एव तादृशपटे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्यः। अस्तु, अत्र चित्ररूपम् एव वयं दृष्टवन्तः। अव्याप्यवृत्तित्वं कपिसंयोगेन एव वयं दृष्टवन्तः। चित्ररूपस्य कृते एव अपि अव्याप्यवृत्तित्वं ते तथा एव वर्णयितुं शक्यः इति एवं वयं दृष्टवन्तः।
तत्र अव्याप्यवृत्तित्वम् इत्युक्ते किमस्ति, यत्र किमपि अस्ति अपि तस्य
अभावः अपि अस्ति
तदेव अव्याप्यवृत्तित्वम्।
वृत्तित्वम्
इदानीम् अस्मिन् पटे पटे तत्र किं पीतरूपं तस्य व्याप्यवृत्तित्वम् अस्ति वा अव्याप्यवृत्तित्वम् अस्ति वा?
पीतरूपम् अव्याप्यवृत्तित्वं, यतोहि अत्र पटे यतोहि पटे रक्तरूपम् अपि दृश्यते। यत्र पीतरूपम् अपि च पीतरूपस्य अभावः अपि दृश्यते।
पीतरूपस्य अभावः
अपि दृश्यते
यतोहि अभावः किमर्थं दृश्यते, यतोहि रक्तरूपं दृश्यते तत्र। समीचीनम्। इदानीं रक्तरूपं तस्य किं
रक्तरूपमपि अव्याप्यवृत्तित्वं, यतोहि रक्तरूपम् अपि च रक्तरूपस्य अभावः अपि पटे दृश्यते। यत्र रक्तरूपस्य अभावः अस्ति तत्र पीतरूपं दृश्यते इत्यनेन अव्याप्यवृत्तित्वम् इति वयं दृष्टवन्तः
हा अतः तत्र पीतरूपम् अपि वर्तते किन्तु पीतरूपस्य अव्याप्यवृत्तित्वम् अस्ति रक्तरूपम् अपि अस्ति किन्तु तस्य अपि अव्याप्यवृत्तित्वम् अस्ति अतः तत्र किमस्ति चित्रः पटः इति प्रत्ययः नाम चित्रः प्रत्ययः इत्युक्ते तत् ज्ञानं नाम प्रत्ययः इत्युक्ते प्रतीतिः तत्र ओ एषः पटः कीदृशः चित्रः पटः अस्ति चित्रः पटः इति प्रत्ययः अस्ति तत्र तत्र किं ज्ञानं भवति अस्मिन् अस्माकं तस्मिन् सन्दर्भे
व्यापवृत्ति इति
अव्याप्यवृत्ति नाम तत्र पीतरूपमपि वर्तते पीतरूपस्य अभावः वर्तते रक्तरूपमपि वर्तते रक्तरूपस्य अभावः वर्तते इति एव तत्र अतः रूपद्वयं यदस्ति तत्र ताभ्यां च चित्रः पटः
इति प्रत्ययः
वर्णयितुं शक्यः नाम एषः प्रतीतिः अथवा प्रत्ययः यथा एषः घटः अयं घटः इति अस्ति चेत् तत्र विषयः अस्ति घटः ज्ञानमस्ति एषः घटः अस्माकं मनसि किं ज्ञानं घटविषयकज्ञानम् उत्पद्यते तथैव चित्रः पटः इति तत्र पटः इति विषयः तस्मिन् पटे रूपद्वयं वर्तते
रूपद्वयं
वर्तते अस्मिन् पटे इति बोधः
इति ज्ञानं भवति ज्ञानम्
अतः एव तत्र वर्णयितुं शक्यः चित्रः पटः तस्य वर्णनं किमस्ति ओ अस्मिन् पटे पीतवर्णमपि अस्ति रक्तवर्णमपि अस्ति पीतवर्णस्य अभावः अपि अस्ति रक्तवर्णस्य अभावः अपि अस्ति अस्तु अग्रे
अतः अतिरिक्तस्य सप्तम्यस्य चित्ररूपस्य स्वीकारः अनुचितः इति अतः अतिरिक्तस्य सप्तम्यस्य चित्ररूपस्य स्वीकारः अनुचितः चित्ररूपे इति लैक् सप्तम्यस्य लैक् अतिरिक्तस्य सप्तम्यस्य
नाम चित्ररूपमेव सप्तमरूपमासीत् रूपस्य सप्तविधम् इति उक्तं तत्र सप्तमम् आसीत् चित्ररूपं
चित्ररूपम् इति वयं दृष्टवन्तः
अतः तस्य स्वीकारः
अनुचितः इति
नाम अतिरिक्तम् इत्युक्ते तत्र यत् षड् रूपाणि सन्ति तत्र तानि विहाय सप्तमरूपम् अतिरिक्तरूपस्य
अस्ति
चित्ररूपम् इति अस्ति तस्य स्वीकारः अनुचितः षड् रूपाणि एव इति पर्याप्तं
शुक्लनीलपीतरक्त हरित इति
प्रश्नः अस्ति
वदतु महोदय वदतु अहं दृष्टवान् किन्तु भगिनी उक्त अतः किमपि न पृष्टवान् वदतु महोदय
ताभ्यां नाम किं महोदय
रूपद्वयं तत्र ताभ्यां रूपद्वयं यदस्ति रूपद्वयम् अस्ति तत्र रूपद्वयस्य यथा वयं वर्णनं कृतवन्तः तत्र पीतरूपम् अपि वर्तते पीतरूपस्य अभावः अपि वर्तते पीतरूपस्य अव्याप्यवृत्तित्वम् अस्ति रक्तरूपमपि वर्तते रक्तरूपस्य अभावः अपि वर्तते पटे तर्हि रक्तरूपस्य अपि अव्याप्यवृत्तित्वम् अस्ति एतदेव ज्ञानं यदि वयं वदामः चित्रः पटः नाम नीलः घटः इति वदामश्चेत् अथवा तत्र रक्तघटः इति वदामः तत्र किं कः बोधः भवति ओ घटः अस्ति घटस्य वर्णः रक्तः इति यथा बोधः भवति तथैव चित्रः पटः इत्युक्ते पटे चित्ररूपं वर्तते इति अस्ति किन्तु चित्ररूपम् इत्युक्ते किं केवलं तत्र मिश्रितरूपम् अस्ति नाम केवलम् एकं रूपम् इति न रूपद्वयम् अथवा रूपत्रयं रूपचतुष्टयं किमपि अस्ति तावदेव नाम रूपाणि सन्ति पटे प्रत्येकरूपस्य अव्याप्य वृत्तित्वम् अस्ति
अभ्याम् इत्युक्ते वृत्ति निर्देशयति व्याप्यवृत्तिनैव
हा हा रूपद्वयं ताभ्यां नाम अव्याप्य वृत्तित्वं प्रत्येकरूपस्य अव्याप्य वृत्तित्वम् इति एव तत्र तस्य आधारेण वयम् अस्य प्रत्ययस्य अर्थः कः इति वक्तुं शक्नुमः
अस्तु अस्तु अवगच्छामि
द्विवचने द्विवचने यतोहि रूपद्वयं वर्तते इति
आम् एवमेव अवृत्तिः अपि द्वे स्तः
अवृत्तित्वम् अवृत्तित्वं द्वयमस्ति अवृत्तित्वं नाम क्षम्यताम् अव्याप्यवृत्तित्वं द्वयमस्ति अव्याप्यवृत्तित्वं पीतरूपस्य अपि अव्याप्यवृत्तित्वम् अस्ति रक्तरूपस्य अव्याप्यवृत्तित्वम् अस्ति एतद्वयम् अव्याप्यवृत्तित्वं रक्तरूपस्य पीतरूपस्य अव्याप्यवृत्तित्वम् एव चित्रः पटः इति तृतीयस्य
ज्ञानं भवति
ज्ञानमस्ति ज्ञानं भवति इति
अस्तु धन्यवादः महोदय
ताभ्यां वर्ण तत्र ताभ्यां तस्य आधारेण वर्णयितुं शक्नुमः अस्य प्रत्ययस्य अर्थः कः इति वक्तुं शक्नुमः अर्थः अस्ति द्वयोः अव्याप्य वृत्तित्वम् अस्तु समीचीनम् अस्तु अस्तु महोदय अग्रे सरामः तर्हि तत्र अग्रे तत्र
वक्तुं शक्यते महोदय
अस्तु 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 भगिनि इदानीं पठतु भगिनि तर्हि
इह पटे पीततन्तु तन्तु अवच्छेदेन पीतरूपं रक्तरूपाभावः च तत्र एव पटे रक्ततन्तु अवच्छेदन रक्तरूपं पीतरूप अभावश्च एतादृशव्याप्यवृत्तिरूपसमुदायः यत्र भवति तत्रैव चित्रः पटः चित्रं कुस्ममिति व्यवहारः भवति इति धिक् यद् अस्माभिः पठितं प्रतिपादितं च अस्मिन् चित्रे पीततन्तवः सन्ति रक्ततन्तवः अपि सन्ति यत्र रक्ततन्तवः सन्ति तत्र पीतरूपस्य अभावः अस्ति यत्र पीततन्तवः सन्ति तत्र रक्तरूपस्य अभावः अस्ति इति अत्र दर्शितमस्ति अपि च वर्णितमस्ति पीतरूपस्य अवच्छेदकः पीतरूपं पीततन्तु अवच्छेदकः अस्ति रक्तरूप अभावः च तत्र एव तस्मिन्नेव पटे रक्तरूपम्
एकनिमिष भगिनि तत्र एतावत् स्वीकृत्य वदतु तर्हि तत्र
पटे यत्र पीततन्तवः सन्ति तत्र पीततन्तवः पीतरूपमस्ति तत्र अवच्छेदकं पीततन्तवः सन्ति अपि च रक्त अवच्छेदकम् अपि च रक्तरूप अभावः अपि च अवच्छेदकः अस्ति खलु महोदय तत्रैव रक्तरूप अभावः
रक्तरूप अभावः अपि
अवच्छेदकः
पीतरूपं न पीततन्त्व अवच्छेदेन पीतरूपम्
अस्ति
अपि पीततन्त्व अवच्छेदेन रक्तरूप अभावः नाम पीतरूपम् अवच्छेद्यम् अस्ति अवच्छेदकः अस्ति पीततन्तवः
अस्तु
तन्तुः अपि रक्तरूप अभावः कुत्र कुत्र वर्तते इत्युक्ते यत्र पीततन्तवः तत्र एव रक्तरूप अभावः तर्हि रक्तरूप पीततन्तवः इति अवच्छेदकः अस्ति किन्तु पीतरूपस्यापि अवच्छेदकम् अस्ति
अस्तु अपि च रक्तरूपभावस्य अपि
अवच्छेदकम्
अस्तु 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 अपि च तथैव यत्र यत्र रक्ततन्तवः सन्ति तत्र रक्तरूपमस्ति रक्ततन्तवः रक्तरूपस्य अवच्छेदकाः सन्ति अपि च पीतरूप अभावस्य अपि अवच्छेदकाः सन्ति
इति अस्ति समीचीनं
यथा अस्माभिः कपिसंयोगविषये दृष्टम् अत्रापि एतादृश अव्याप्य वृत्तिरूपसमुदायः यत्र भवति इत्युक्ते अत्र अव्याप्तवृत्तेः समुदायः अस्ति पीततन्तोः पीततन्तवः तेषाम् अभावः तथैव रक्ततन्तवः तेषाम् अभावः इति अभावसमुदायः रूपसमुदायस्य अभावः
रूपसमुदायः अस्ति नाम पीतरूपम् अपि अस्ति रक्तरूपमपि अस्ति अपि पीततयोः अभावः पीतरूपस्य अव्याप्य वृत्तित्वम् अस्ति खलु पीतरूपं कीदृशम् अस्ति अव्याप्य वृत्तित्वरूपम् अस्ति खलु खलु अव्याप्य वृत्तित्वरूपं पीतरूपम् अस्ति
तथैव रक्तरूपमपि अव्याप्य वृत्तिरूपमस्ति
अतः समुदायः समुदायः अत्र भवति खलु
तेन कारणेन तत्र चित्रपटः इति उच्यते यथा वयं पटः चित्रः इति उच्यते यथा वयं कुसुमानां विषये वक्तुं शक्नुमः कुसुमः चित्ररूपितमिति चित्ररूपमिति कुसुमस्य रूपं चित्रमिति वर्णयितुं शक्नुमः
अतः एतादृशव्यवहारः भवति इति
अस्माभिः स्वीकरणीयं
हा इति दिक् तावदेव नाम द्रव्याणां मतमस्ति तावदेव तत्र चित्ररूपस्य आवश्यकता एव नास्ति
नास्ति
अस्मिन् विषये किमपि अन्यत् वक्तव्यं नास्ति
इत्युक्ते रूपं इत्युक्ते रूपम् अव्याप्यवृत्तित्वम् इति स्वीकरणीयमिति तेषां मतः
इति अस्ति तेषां रूपस्य अव्याप्यवृत्तित्वम् अस्ति कुत्रचित् सर्वत्र भवति नाम कुत्रचित् रूपस्य व्याप्यवृत्तित्वम् अस्ति किन्तु सर्वत्र व्याप्यवृत्तित्वम् अस्ति इति मास्तु रूपस्य अव्याप्यवृत्तित्वमपि भवति व्याप्यवृत्तित्वं कुत्रचित् भवति किन्तु अव्याप्यवृत्तित्वस्य स्वीकारेण लाघवम् अस्ति तत्र चित्ररूपस्य आवश्यकता नास्ति
आं महोदय धन्यवादः
इति तेषां मतं
तेषां मतः
तत्र अतः भवति इति दिक् इति उक्तं समीचीनं धन्यवादः वदतु भगिनि
इत्युक्ते तत्र पीततन्त्व अवच्छेदेन इति स्वीकुर्मः चेत् यदि तत्र दशवर्णाः सन्ति चेत् पीततन्त्व अवच्छेदेन पीतरूपम् अपि च दशवर्णानां रूपाभावः अभावः तेषामपि ते अपि अवच्छेद्याः भवन्ति इति वा
तत्र अवच्छेदाः न भवन्ति यतोहि भगिनि तत्र किं भवति तत्र
रूपाभावस्य
तादृशम् अस्ति किन्तु यत् भवती चिन्तयति समीचीनमेव किन्तु तत्र समीचीनं भगिनि तादृशमेव अस्ति किन्तु तत्र प्रायशः किञ्चित् इतोपि वक्तव्यं भवति किन्तु तादृशमेव अस्ति भगिनि सत्यमेव
मम अवगमनार्थम् इत्युक्ते तत्र यत्र पटे यानि कानि अपि वर्णाः भवेयुः एकमेकं स्वीकृत्य तादृशं वक्तुं शक्नुमः वा
सत्यं भगिनि सत्यं सत्यम्
अस्तु इदानीं
किन्तु तत्र पश्यतु भगिनि नाम तत्र यदि वर्णत्रयं वर्तते इति स्वीकरोतु तर्हि तत्र अत्र रक्तवर्णः रक्तरूपम् अत्र अस्ति किन्तु अत्र रक्तरूपम् अस्ति तर्हि तत्र रक्ततन्त्वावच्छेदेन रक्तरूपम् इति वक्तुं शक्नुमः अपि तत्र किन्तु तत्र रक्ततन्तवः नीलरूप अभावस्य अवच्छेदकः इति वक्तुं शक्नुमः वा
आम् नीलरूप अभावस्य अपि च हरितरूप अभावस्य अवच्छेद्यः अपि भवति इति
अवच्छेदकः नाम पीततन्तव रक्ततन्तवः तत्र
नीलरूपस्य
किन्तु तत्र किमस्ति नीलरूपस्य अभावः अत्रापि अस्ति अत्रापि अस्ति खलु
आम्
नीलरूपस्य अभावः अत्रापि वर्तते अत्रापि वर्तते अतः तर्हि तत्र नीलरूप अभावस्य अवच्छेदकः भवति रक्ततन्तवः अपि हरिततन्तवः द्वयं स्वीकृत्य अवच्छेदकम्
इत्युक्ते नीलवर्णं स्वीकुर्मः चेत् रक्तरूपम् अपि च हरितरूपं तेषां रक्तरूप अभावः हरितरूप अभावः अवच्छेद्यौ भवतः अपि च किन्तु नीलरूप अवच्छेदेन
साक्षात् न किन्तु तादृशी वक्तुं शक्नुमः किन्तु तत्र नाम रक्तरूपस्य अवच्छेदकः अस्ति रक्ततन्तवः किन्तु नीलरूप अभावस्य अवच्छेदकः अस्ति रक्ततन्तवः अपि हरिततन्त्र
अपि च हरिततन्त्र अपि च अन्ये अस्ति चेत् सन्ति चेत्
अन्ये अपि सत्यं भगिनि इति भवति अतः तत्र एकमेव तत्र कार्यं न करोति अतः तत्र तत्रापि समुदायस्य आवश्यकता भवति तावदेव किन्तु उत्तम चिन्तनं तु उत्तमं भगिनि नाम एतद् यत्र अनेकानि वर्णानि भवन्ति तत्रापि एतादृशी स्थितिः वर्तते वर्णने किञ्चित् भेदः भवति तावदेव तावदेव किन्तु एतादृशी एव अस्ति तत्र एकमेव तत्र यत्र रक्ततन्त्रः सन्ति ते रक्तरूपस्य अवच्छेदकः अपि भवन्ति अपि अन्येषां वर्णानाम् अभावस्य अवच्छेदके अपि अन्तर्भूताः भवन्ति ते अपि इति अस्ति
इति भवति अस्तु तर्हि तत्र प्राचीनानां मते अतः चित्ररूपम् इति स्वीकृत्य एतस्य निवारणं प्रायशः कृतवन्तः इति
ते वदन्ति ते तेषां तत्र मूल रूपम् अव्याप्य वृत्तित्वगुणः अस्ति इति तेषां प्रथम
इत्युक्ते सर्वं वक्तव्यं न भवति तदानीं
सत्यं भगिनि ते वदन्ति चित्ररूपम् इति स्वीकरोतु व्याप्य वृत्तित्वम्
इत्युक्ते तत्र अभावः अपि च इत्युक्ते एकेन रूपेण रूपस्य अवच्छेदनेन अन्येषाम् अभावस्य अन्येषां
तत् एकमेव रूपम् अस्ति अन्यस्य अभावः नास्ति तत्र एकमेव रूपं
तदेव महोदय तत्र तत् एतत् सर्वं कर्तव्यं न भवति प्राचीनानां मते
सत्यं 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 किन्तु
इति
किन्तु वदतु भगिनि
इति अंशः अपि अस्ति वा इति चिन्तितं
सत्यं सत्यं भगिनि अस्ति अतः किन्तु किं भवति तत्र अस्मिन् विषये अस्तु वयं चिन्तयामः तत्र तस्य आवश्यकता नास्ति प्राचीनानां मतमेव अनुसरामः समीचीनं किन्तु अन्यत्र कुत्रापि व्याप्यवृत्तित्वम् अथवा अव्याप्यवृत्तित्वम् इति विषयः तु उदेति एव अस्मिन् प्रसङ्गे वयं चिन्तयामः अस्तु अहम् एतत् मतं स्वीकरोमि अन्यत् मतं मास्तु अस्तु चिन्तनं चिन्ता मास्तु किन्तु अन्यत्र कुत्रापि भवति एव नाम एतादृशी स्थितिः व्याप्यवृत्तित्वम् अथवा अव्याप्यवृत्तित्वम् इति प्रश्नः तु उदेति एव अन्येषु विषयेषु अतः अस्माकम् एषा चर्चा या जाता सा लाभदायका अस्ति.
आं महोदय, इदानीम् एतत् स्वीकृत्य वदतु महोदय, क्षम्यतां.
न न, किं किमपि नास्ति, वदतु भगिनि.
एतत् स्वीकृत्य तत्र मूल अवच्छिन्नवृक्षनिष्ठ इति वाक्यं कर्तुं शक्नुमः वा, तादृशं तथा एव?
न न न न, मूल अवच्छिन्न किं
तत् न भवति. अस्तु,
यतोहि कपिसंयोग तु तत्र अव्याप्यवृत्तित्वम् अस्ति तस्य.
आम्, अत्रापि अव्याप्य अस्ति खलु महोदय, इत्युक्ते नवीनां नव्य
नवीनानां मध्ये तत्र चित्ररूपम् इति नास्ति,
तत्र व्याप्य अव्याप्य इति एव स्वीकुर्वन्ति ते.
इत्युक्ते न न, अव्याप्य इत्युक्ते सर्वदा अव्याप्यम् अव्याप्यवृत्तित्वम् इति न, यत्र पीतरूपपुस्तकम् अस्ति तत्र पीतरूपं तस्य पीतरूपस्य व्याप्यवृत्तित्वम् अस्ति, किन्तु यत्र
बहवः
अतः अव्याप्यवृत्तित्वं नाम अव्याप्यवृत्तित्वं भवति भवितुम् अर्हति इति एव.
इत्युक्ते पुस्तकस्य एकत्वे व्याप्यवृत्तित्वं स्वीकुर्वन्ति, किन्तु अस्मिन् उदाहरणे यत्र बहवः वर्णाः सन्ति तत्र ते न स्वीकुर्वन्ति इति,
संख्यायां नाम अव्याप्यवृत्तित्वं भवति इति स्वीकारे, तत्र कुत्रचित् व्याप्यवृत्तित्वम् अस्ति, कुत्रचित् अव्याप्यवृत्तित्वम् अस्ति, व्याप्यवृत्तित्वं नास्ति इति एव. किन्तु प्राचीनानां मतमस्ति सर्वत्र व्याप्यवृत्तित्वम् एव इति भेदः. प्राचीनानां सर्वत्र व्याप्यवृत्तित्वं, नवीनानां कुत्रचित् व्याप्यवृत्तित्वं, कुत्रचित् अव्याप्यवृत्तित्वं. तेन का हानिः? कापि हानिः नास्ति, अतः स्वीकुर्मः. किमर्थं सप्तमं रूपम् इति तेषां मतम्.
आं महोदय, धन्यवादः महोदय.
अस्तु भगिनि, अस्तु, इदानीम् अग्रे तत्र चन्द्रमती भगिनी न पठितवती. अस्तु, तर्हि अग्रे पठतु भगिनि.
पृथिव्यादि त्रिकवृत्तिरूपं तत्र शुक्लरूपमेव त्रिषु वर्तते. अन्यानि तु पृथिव्यामेव, तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् भास्वरं शुक्लमिति उच्यते. पृथ्वी जल पृथ्वी जलयोः तु शुक्लरूपं न प्रकाशम् इति प्रकाशकम् इति तत् अभास्वरम् इति. पृथिव्या पृथ्यादि त्रिकवृत्तिरूपं, त्रिकम् इत्युक्ते पृथ्वी तेजः वायुः.
न न, तत्र रूपं कुत्र कुत्र वर्तते?
पृथिव्यां अत्र शुक्लरूपमेव त्रिषु वर्तते.
न न, रूपं कुत्र कुत्र वर्तते? रूपं वायो वर्तते वा? रूपं
न,
तर्हि पृथिव्यां वर्तते रूपम्? जले?
न,
जले वर्तते रूपम्. अपि अन्यत्र कुत्र वर्तते रूपम्? तेजसि,
तेजसि भासुरशुक्लरूपं.
तर्हि त्रिक त्रिकवृत्तिरूपं नाम रूपं कुत्र कुत्र वर्तते पृथिव्यादि त्रिके नाम पृथिव्यां जले
तेले
वर्तते रूपं वर्तते निमिषद्वयं स्वीकृत्य समापयामः अस्तु तदृशरूपमेव
वर्तते पृथ्व्यां जले तेजसि शुक्लरूपमेव वर्तते अन्यानि तु पृथ्व्यामेव
नाम रूपस्य कति विधानि सन्ति
सप्तविधानि
इति अतः केवलं शुक्लमेव सर्वत्र वर्तते शुक्लरूपं पृथिव्यां वर्तते जले वर्तते
तेजसि वर्तते तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति भास्वरं शुक्लरूपम् इति उच्यते तेजसि विद्यमानं शुक्लरूपम् अन्यान् अन्यवस्तूनां प्रकाशं ददाति अतः तद् भास्वरशुक्लरूपम् इति उच्यते
पृथ्वी सूर्ये तत्र सूर्यस्य शुक्लरूपम् इति कृत्वा एव तत्र सूर्यं प्रकाशयति इति कृत्वा भास्करः इति नाम अस्ति खलु तथैव भास्वरशुक्लरूपं यतोहि अन्यान् प्रकाशयति भास्वरशुक्लरूपम् इति नाम अपि पृथ्वी जलयोः शुक्लरूपं
पृथ्वी जलयोः शुक्लरूपं न प्रकाशमानं प्रकाश इति तत् अभास्वरमिति तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति अतः भास्वर शुक्लरूपं किन्तु यत् शुक्लरूपं वृद्ध्याम् अनन्तरं जले अपि वर्तते तद् अभासुरशुक्लरूपम् अन्यान् न प्रकाशयति अतः तद् अभासुरशुक्ल इति वदति
इति अस्ति भगिनि समीचीनम् अतः यद्यपि पृथिवी आदित्रिके नाम पृथ्वी जले तेजसि रूपं वर्तते किन्तु पृथिव्यां सप्तरूपाणि अथवा षड् रूपाणि अपि वर्तन्ते किन्तु जले एकमेव रूपं शुक्लरूपं तेजसि एकमेव रूपं शुक्लरूपं जले यत् शुक्लरूपम् अस्ति तदस्ति अभास्वरशुक्लरूपम् यदस्ति तदस्ति भास्वरशुक्लरूपम् इति अस्ति समीचीनं हा अस्तु इदानीं तेन तत्र रूपस्य लक्षणविवरणं समाप्तम् अस्ति इदानीम् अग्रे तत्र रसादिलक्षणानि अपि तेषां विभागः अग्रिमे सप्ताहे कुर्मः अस्तु समीचीनमस्ति धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः नमस्कारः
धन्यवादः महोदय
धन्यवादः
धन्यवादः
नमस्कारः शुभरात्रिः धन्यवादः नमस्कारः